गणानां त्वा गणपतिगं हवामहे कविं कवीनाम् उपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पद आनशृण्वन् ऊतिभिस्सीदसादनम् श्रीमहागणाधिपतये नमः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसशिवस्सोऽहं हस्तकफ्रें हसक्षमलवर्य ॐ हसौं सहक्षमलवर्य ईं सहौः स्वरूपनिरूपणहेतवे स्वगुरवे श्री अन्नपूर्णाम्बासहित श्री अमृतानन्दनाथ श्रीगुरुश्रीपादुकां पूजयामि तर्पयामि नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसशिवस्सोऽहं हसकफ्रें हसक्षमलवर्य ॐ हसौं सहक्षमलवर्य ईं सहौः स्वरूपनिरूपणहेतवे स्वगुरवे श्री अन्नपूर्णाम्बासहित श्री अमृतानन्दनाथ श्रीगुरुश्रीपादुकां पूजयामि तर्पयामि नमः ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसशिवस्सोऽहं हसकफ्रें हसक्षमलवर्य ॐ हसौं साक्षमलवर्य ईं सहौः स्वरूपनिरूपणहेतवे स्वगुरवे श्री अन्नपूर्णाम्बासहित श्री अमृतानन्दनाथ श्रीगुरुश्रीपादुकां पूजयामि तर्पयामि नमः ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ॐ श्रीं ह्रीं क्लीं ऐं सौं शरवणभवाय नमः ॐ श्रीं ह्रीं क्लीं ऐं सौं शरवणभवाय नमः ॐ श्रीं ह्रीं क्लीं ऐं सौं शरवणभवाय नमः ऐं ह्रीं क्लीं चामुण्डायै विद्महे ऐं ह्रीं क्लीं चामुण्डायै विद्महे Shivam